ृषभेदनस्तन्वन्ति पुंस्यम् शुक्राम् वयन्ति सूराय निर्निजम् विपामग्रे महीयुवाः अधक्षपापरिष्कृतो वाजाङ्गभिप्रगाहते यदि विवस्वतो धियो हरिम् हिन्वन्ति जातवे तमस्य मर्जयामसि मधो यजिन्द्रपातमः गङ्गाव आसभिर्दतुः पुराणूनम् च सूरयाः गङ्गाधया पुराण्याहो नानमभ्यनोषत उदोग्रे बन्दधीतयो देवानाम् नाम विभ्रजीः समुक्षमानमव्यजेवाने पुनन्ति धर्मसिम् दूतम् न पूर्वचित्तया सासते मनीषिणाः समूनानो मदिन्द्रमस्वमश्चमोषो सीदति वसौ नरेत आददत्पतिर्वचस्य ते धियः समृद्धते सुकर्माभिर्देवो देवेभ्यः सुतः विदेयदा सुसन्धधर्मगीरपो विगाहते सुत इन्दो पवित्रान्धर्यतो विनीयसे इन्द्राणमत्सरिन्द्रमश्चमोष्वानिषीदसि अभीनवन्दे अर्जुनप्रियमिन्द्रस्य काम्यम् वत्सन्न पूर्वायो निजातम् देहन्ति मातराः पुनानयन्दवाभरसोमद्युबर्हसं रजम् निपुष्यति विश्वानियाशुषो गृहे त्वम् धियम् मनोयुगम् सृजा वृष्टिम् नरन् यतुः तम् वसो निवार्थीवा दिव्या च सोमपुष्यसि परीते जिज्ञुषो यथा धारा सुतस्य धावति गङ्गमानाव्याव्ययम् वारम् वाजीव सा नसिः रत्ने दक्षायनः कवे पवस्व सोमधारजा इन्द्राय पातवे सुतमित्राय वरुणाय च अपस्तवाजसातामः पवित्रे धारजा सुतः इन्द्राय सोमविष्णवे देवेभ्यो मधुमत्तमः त्वाम् विहन्ति मातरो हरिम् पवित्रे अद्रुहाः वत्सम् जातम् न धेनवः पवमानविधर्मणि पवमानमहिश्रवश्चित्रेभिर्यासिरश्मिभिः शर्धन्दमांसि जिघ्नसे विश्वानि दासुषो गृहे त्वम् च मयम् व्रतपृथिवीम् चातीजभृषे प्रतिद्रापि वा मुञ्जथाः पवमानमहि त्वना भोरैनो अपि वादयमनाः हरिः ओ पुरोजी देवो अन्धसुदायमादयित्नवे अपरस्वानम् स्रथिष्ठनसखायो दीर्घजिह्वनम् यो धारयापापकया परिप्रस्यन्दते सुतः इन्दुरस्वोनकृत्याः न्दुरोषमभीनरः सोमम् विश्वाच्याधिया यज्ञम् निन्वन्त्यद्रिभिः सुता सोमधूमत्तमाः सोमा इन्द्राय मन्दिनाः अभित्रावन्तोरक्षरम् देवान् गच्छन्तु गोमदाः इन्दुरिन्द्राय पवत इति देवासो अब्रुवन् वाचस्पतिर्मकस्य ते विश्वस्येषा नवोजसा सहस्रधारः पवते समुद्रो वाचमीङ्खयः सोमःपतीरयीणाम् सखेन्द्रस्य दिवे दिवे अयम् भूषारयिर्भगः सोमः पुनानो अर्षति पतिर्विश्वस्य भूमानो व्यक्षद्रोदसी उभे समप्रियानोषदगामोमदाय कृष्वजः सोमासः कृण्वते वसः पवमानास इन्दवः यभोजिष्ठस्तमाभरपवमानश्रवार्यम् यः पञ्चदर्शनीरभिरञ्जेन वनामहै सोमाः पवन्त इन्दभोस्मभ्यम् गातु वित्तमाः मित्रासु बाला रेपसस्वाध्यस्वर्विदाः सुष्वानासो व्यद्रिभिश्चिता नागो रधित्वचि युषामस्मभ्यमभिधस्तमस्वरन् वसुविदाः एते भूतापि पश्चिदः सोमाः सोदध्याशिरः सूर्यासो न दर्शदासो जिगत्नवोऽभ्युपाकृते प्रसन्नानस्यान्ध सोमर्थो न वृतद्वचाः अपस्वानमराधसं हरामकन्न भृगवः आजाविरत्के अव्यतभुजेन पुत्रभोऽन्योः सरजारो न योषाणाम् वरो न योनिमासदम् वीरो दक्षसाधनो वियस्तस्तम्भरोदासी हरिः पवित्रे अव्यतभेधानयोनिमासदम् अव्योपारे विद्पवते सोमोगव्ये अधित्वचि कनिकृतदृढा हरिरिन्द्रस्याभ्ये निष्कृतम् प्राणासि सुर्महीनाम् हिन्वन्मृतस्य दीहीतिम् विश्वावरिप्रिया भूपदद्विता उपकृतस्य पार्श्वो ओरभक्तयद्गुहापदम् यज्ञस्य सप्तधामभिरधप्रियम् तेने कृतस्य धाराया पृष्ठेष्वेरजारयम् विमीते अस्य योजनापि सुक्रतोः यज्ञानम् सप्तमातरो वेधामसासतश्रिये अयम् ध्रुवोरजीनाम् चिकेतयत् अस्य व्रते सजोषसो विश्वे देवासो अद्रुहाः स्मार्गभवन्तिरन्तयो जुषन्तयत् यमी गर्भमृतावृधो दृशे चारुमजीजनन् कविम्मम् गष्टमध्वरे पूरुस्पृहम् समीचीने अभिरित्मना यग्भिरुतस्य मातराः अन्वाना यज्ञमानुषज्ञदञ्जते कृत्वा शुक्रेभिरक्षभिर्णोरपव्रजम् दिवः इन्मृतस्य दीधिजिम्राध्वरे प्रभो नानाय वेधसे सोमायवचमुद्यतम् सृजन्नभरामतिभिर्जुजोषते परिवाराण्यव्यजागोभिरञ्जानो अर्षति त्रिशतस्था पुनानः कृणुते हरिः परिकोशम् मधुश्चुतमव्ययेवारे अर्षति अभिमानीर्षीणाम् सप्तनोषत अरिनेतामदीनाम् विश्वदेवो अदाभ्यः सोमः पुनानः संवोर्विसद्धरीः परिदैवीरणस्वधा इन्द्रेण याहि सरसम् पुनानो वागद्वागद्भिरमर्त्यः परिसप्त्यर्नवाजयुर्देवो देवेभ्यः स्तुतः जानसि पवमानो विधावति सखाय आनिषीदत पुनानाय प्रकाशत शिशुन्न यज्ञैर्परिभूषतश्रिये समी वत्सन्न मातृभिः सृजता गजसाधनम् देवाव्या अम्मदमभिद्विषवसम् पुनाता दक्षसाधनम् यथा सर्धाय वीतये यथा मित्राय वरुणाय सन्तमः अस्मभ्यम् तावसुविदमभिवानीरणोषत गोभिष्टे वर्णमभिवासयामसि सनो मदानाम् पतयिन्दो देवत्सरासि सखे वसख्ये गातुवित्तमो भव सनेमि कृध्यास्मदा रक्षसङ्कम् चिदत्रिणम् अपादेवम् द्वयुमम् भो युजोधिनः संवत्सखायो मदाय पुराणमधिगायत श्रीजन्नयज्ञेष्वादयन्त गोत्यभिः संवत्सजीव मातृभिरिन्दर्हिन्वानो अर्जते देवावीर्मदो मतिभिः परिष्कृतः अयम् दक्षाय साधनोऽयम् सर्धाय वीतये अयम् देवेभ्यो मधुमत्तमः सुतः गोमन्न इन्दो अश्वत्सुतः सुदक्षधन्व सुचिन्ते वर्णमधिकोषो दीधरम् नो हरीनाम् पद इन्दो देवप्सरस्तमः सखेव सख्ये नर्यो रुचे भव सने विद्मदेवम् कञ्चिदत्रिणम् साह्वाङ्गिन्दो परिबाधो अपद्वयम् इन्द्रमच्छ सुता जिमे वृषाणम् जन्तु हरजः सृष्टि जाता स इन्द्रवः स्वर्विदाः अयम्भरायसा नसिरिन्द्राय भवते सुतः सोमो जेत्रस्य चेतति यथा विदे अस्येदिन्द्रो मदेष्वाद्राभम् गृह्णीतसा नसिम् वज्रम् च वृषाणम् भरत्समप्सुजित् रथन् वासो मजाग्रेभिरिन्द्रायेन्दो परिस्रव युवन्तम् सुष्ममाभरा स्वर्विदम् इन्द्राय वृषणम् मदम् पवस्व विश्वदर्शतः सहस्रयामापधिकृद्वीचक्षणः अस्मभ्यम् गादुवित्तमो देवेभ्यो मधुमत्तमः सहस्रम् जाहि पतिभिः कनिक्रदत् अमस्वदेववीतजयिन्दो धाराभिरोजसा आकलसम्मधुमान् सोमरस्वदः तवद्रप्साभूदप्रद इन्द्रम् मदाय वामृदुः त्वाम् एवासो अमृतायकम् पापुः आनस्तुदास इन्दवः पुनानाधावतारयम् वृष्टिद्यावोरीत्यापः स्वर्विदाः सोमः पुनान भूर्मिणाभ्योपारम् विधावति अग्रे वाचः पवमानः कलिक्रदत् देभिर्हिन्वन्ति वाजिनम् वने क्रीळम् दमत्यभिम् अभित्रे पृष्ठम् हदयः समस्वरन् असर्जि कलशाम् अभिमेढे सप्तिर्नवाजयुः पुनानो वाचम् जनयन्नदिष्यदत् अपदेहर्यतो हरिरदिह्वराम् शिरम् ह्या अभ्यर्षन् स्तोतृभ्यो वीरभद्यसाः अजापावस्वदे भजर्मधोद्धारा अदृक्षत रेभन् पवित्रम् पर्येडिभिस्वताः पदीतोषिम् गता सुतम् सोमो जगोत्तमम् हविः धन्वाङ्गो अप्स्वा अन्तरा सुषाभसो ममद्रीभिः नूनम् पूनानो विभिः परिस्रवालब्धस्वरभिन्दरः सुतेजिष्वाप्सु मदामो अन्धसा श्रीरन्तो गोभिरुत्तरम् परीषु बालश्चक्षसे देवमादनः क्रतुरिन्दुर्विचक्षणः पुनानः सोमदारशापोपसा नो अर्षसि आरत्नदा योनि मृतस्यासीदस्युत्सो देवहिरण्यजाः दुहानमोधर्दिव्यम् मधुप्रजम् रत्नम् सधस्तमासदत् आवृच्छम् धरणम् वाज्यर्षदिभिर्भूतो वीचक्षणः पुनानः सोमजाग्रे विरव्यो बाले परिप्रियः अभवोऽङ्गीरस्तमो मध्वा यज्ञम् मे विक्षणः सोमो मे द्वाङ्गावते गाधुमित्तमर्षिर्विप्राभिचक्षणः त्वम् कविरभवो देवमीतमहासूर्यम् रोहयो दिवि सोमापुषुपानः सोदृभिरधिष्णुभिरवीणाम् अश्व एव हरिता जातिधाराया मन्द्रया जातिधाराया अनुपे गोमान् गोभिरक्षाः सोमो दुग्धाभिरक्षाः समुद्रन्न संवरणान्यग्मन्मन्दीमदायतोसते आसोमशुभानो अद्रेभिस्तिरो वाराण्यव्यया जनो न पुरिशम्भोर्विषद्धरि सरोवरेषु दधिषे समावृते तिरो अन्वारिणेष्यो नीले सत्यर्नवाजयोः अनुवाद्यः पवमानो मलेषिभिः सोमो विप्रेभिर्नृक्पभिः रतो मलेन वीरये सिन्धुर्न विद्ये अन्नसा प्रजासामधिरो न जाग्रे विरच्छाकोशम् मधुस्तुतम् आगर्यतो अर्जुने अर्थे अव्यदप्रियः सूनुर्न मध्याः तमीन्वञ्चपसोजसारथम् नदीष्वागपस्त्योः अभिसोमास आजवः पवन्ते मध्यम् मदम् समुद्रस्याधिविष्टवीमनीषिणो मत्सरासः सर्विदाः तरत्समुद्रम् प्रभमानभूर्विना राजा देवहृतम् बृहत् अर्षम् मित्रस्य वरुणस्य धर्माणा प्रगृह्वानहृतम् बृहत् गभिर्ये मानो हर्यतो वीतक्षणो राजा देवः समुद्रिजाः इन्द्राय भवदेवतः स्वामो मरुत्वा ते सुतः सहस्रधारो अत्यव्यमर्षति तमी मृजन्त्यायवाः पुराणश्चमोदनयन्मतिम् कविः स्वामो देवेषु रण्यति अपोवसानः परिगोभिरुत्तरस्येदन्वनेष्वव्यत सभाहम् सोमरारणसख्य इन्दो दिवे दिवे गुरोणि बभ्रो निचरन्ति मामव परिधीङ्ग्रसिताङ्गीः उदाहन्नत्तमुत सोमते दिवा सख्याय बभ्रभूधानि दृढारवम् प्रमलिसूयम् परस्य गुणाजीवपप्तिम सृज्यमानः सुखश्च समुद्रे वाचमिन्वसि त्रयम् विसङ्गम् बहुलम् पूरस्पृहम् पवमानाभ्यर्षसि दानो बाले पवमानो अव्यये वृषावशक्रदो वने देवानाम् सोमपवमाननिष्कृतम् गोभिरञ्जानो अर्षसि अपस्वाजसातजेभिविश्वानि काव्या त्वम् समुद्रम् प्रथमो विशालजो देवेभ्यः स्वमवत्सरः सदोपवस्वपरिपार्थिवम् गतो दिव्या च सोमधर्माभिः त्वाम् विप्रा सोमतिभिर्विचक्षणशुभ्रम् हिन्वन्ति धीतिभिः अपमानादृक्षणपवित्रमधिधारय मरुत्वम् सोमत्सरा इन्द्रियाहया मेधामभिप्रयांसि च अपोदानः परिकोषमर्षतीन्दुर्हियानः सोतृभिः जनयन् ज्योतिर्मन्दनाः अवीव सद्गाक्रण्वानो न निर्निजम् मम स्वमधुमत्तमयिन्द्राय सोमकृतवित्तमोमदाः महिद्युक्षतमोमदाः यस्य देवीत्वा वेषभोरेषायतेऽस्य पीता स्वर्विदाः सुप्रकेतो अभ्यक्रमीदिषोच्छावाजन्नैतसः सङ्ख्याहङ्गदेव्यापवमानजनीमालिद्युमत्तमः अमृतत्वाय घोषजाः येनानवग्भोषद्यङ्गापोर्मृते येन विप्रासहाभिरे देवानाम् सुम्ने अमृतस्य चारु नो येनश्रवांशानसुः एषस्य धाराया सुतो यो वारेभिः पपते मदिन्तमः क्रीडन्नोर्विहपामीव यपुश्रिया अप्या अन्तरस्मानो निर्गाहृन्दोजसा अभिव्रजम् तत्रिषेगव्यमश्यम् वर्मीव धृष्णवारुज आसोता परिषञ्चदा स्वन्नस्तोमभक्तुरम् रजस्तुरम् अनक्रक्षभूतप्लुतम् सहस्रधारम् वृषभम् पाजो वृथम् प्रियम् देवाय जन्माने ऋतेन ऋतजातो विवावृथे राजा देवहृतम् बृहत् अभिद्युम्नम् बृहज्य सयिषस्पते दिधि देवदेवयोः विकोशम् मध्यमम् युङ्ग आवच्यस्व सुचक्षसम्भोस्तुतो विशाम् वह्निर्न विस्मतिः वृष्टिम् दिवः पावस्वरीतिमपाञ्जिन्वागविष्टये धियाः एतमुच्यम् मा दच्युतम् सहस्रधारम् वृषभम् दिवो दुः इश्वावसो निबिभ्रातम् पृषा विजज्ञे जलयन्नमर्त्य प्रतपञ्ज्योतिषातमाः सृष्टोदः कविभिर्निर्मितम् दधे सृधा स्वस्य संसहसा सुतम् वेजो वसूनाम् यो राजामानेताय इळानाम् सोमो यस्सुक्षितीयाम् यस्य न इन्द्रपिबाद्यस्य मरुतो यस्य वाद्यमनाभगाः आयेन मित्रावरुणाकरामहरेन्द्रमवसे महे इन्द्राय सोमपातवेन्द्रभिर्यतः स्वायुधो मचिन्तमः पवस्वमधूमत्तमः इन्द्रस्य हार्दी सोमधानमाभिसमुद्रमीव सिन्धवः युष्टो मित्राय वरुणाय वाजवे जिवोऽभिष्टम् भवुत्तमः परिप्रधन्वेन्द्राय सोमस्वादुर्मित्राय भूष्णे भगाय इन्द्रस्ते सोमसुतस्य बेजाः क्रत्वे दक्षाय विश्वे च देवाः देवामृताय महेक्षयाय स शुक्रो अर्षदिव्यः पीयूषाः पवस्व सोम महान् समुद्रः पिता देवानाम् विश्वाभिधाम शुक्रः पवस्व देवेभ्यः सोम दिवे पृथिव्यै सञ्च प्रजालैः दिवो धत्तासि शुक्रः पीयूषः सत्ये विधर्मन्वाजीपवस्व अवस्तोमद्युम्ने सुधारो महाबवीनामनो भूर्यः नृभिर्ये मानो जज्ञानः पूतः क्षरद्विश्वानि मन्त्रस्वर्विद् इन्दुः पुनानः प्रजामूरानः करद्विश्वानि द्रवीणानि नः अवस्तो भक्रद्वेदक्षाया शोरनिक्तो वाजीधराय सन्ते सोता रोगसम्मदाय पुनन्ति सोमम् महे जुम्नाय सुसंज्ञानम् गणिम् मृजन्ति पवित्रे सोमम् देवेभ्ययिन्दुम् इन्दः पवेष्टचारुर्मदायापामुपस्थे कविर्भगाय विभर्ति चार्विन्द्रस्य रामयेन विश्वानि वृत्रा जघान विभञ्जस्य विश्वे देवासो गोभिः श्रीतस्य नृभिः सुतस्य रसो बालो अक्षासहस्रधारस्थिरः पवित्रमधिमानभव्यम् सभाज्यक्षासहस्रारेता अद्भिर्मृजानो गोभिः श्रीणानः रसो मयाहीन्दस्य कुक्षानुभिर्ये मानो अद्रिभिः सुतः असर्जिवाजीरः पवित्रमिन्द्राय सोमः सहस्रधारः अञ्जन्त्येनम् मध्वोदसेनेन्द्राय वृष्णयिन्दुम् मदाय देवेभ्यस्त्वावृथापाजसेपोपसानम् हरिम् वृजन्ति इन्दुरिन्द्राय दोसते निदोसते श्रीरन्नुग्रो ऋणन्नपः पर्योषः प्रथम् भवाजसातये परिवृत्राणि सक्षणीः दृढस्तरध्यारिणयानयीयसे अनहित्वा सुतम् सोममदामसि महेशमर्यराज्ये वाजाङ्गभिपवमानप्रगाहसे अजीजनो हिपवमानसूर्यम् विधारे सक्मनापजाः गोजीरयारम्भमानः पुरम् ध्या अमृतमध्येष्वामृतस्य धर्मन्नमृतस्य दारुणः सदा धरो वाजमच्छासनिष्यदत् अभ्यभिस्रवसा तदर्जिरोत्सन्नकञ्चिज्जनपानमक्षीतम् सर्याभिर्नभरमानो गमस्त्योः आदीम् केचित्पस्य मानास आप्यम् वसुरुतो दिव्या अभ्यनूषत वारम् न देवस्य विलाव्योर्नुते ये सोमप्रथमावृत्तपरिषो मये वाजायश्रवासे धियम् लदुः सत्त्वन्ना वीरवीर्याय चोदय दिवः पेयूढम् पूर्णम् यदुःखम् महोगाहादिवानिरधुक्षत इन्द्रमभिजायमानम् सरस्वरन् अदयजिमे पावमानरोदसी इमा च विश्वा भुवनाधिमद्मनाः यूथेन निष्कामेषवो विदिष्टसे सोम पुराणो अव्यये वारेषु सुर्णक्रीलन्पवमानो अक्षाः सहस्रधारशतवादयिन्दुः एरवो नानो धूमान्द्रायेन्द्राजेन्दुः पवते स्वादुरूर्मिः राजसनिर्वरिवो विद्वयोधाः सपवस्वतः मानप्रधन्योऽंसेधम् रक्षांसपदुर्गहाणि स्वायुधः सा सह्वान् सोमशत्रून् अजारुचा हरिण्या पुनानो विश्वाद्वेषाम् विदलति स्वयुग्मभिः सूरो न स्वयुग्मभिः धारा सुतस्य रोचते पुनानो हरुषो हरिः विश्वाय ध्रुवपरियात्रिग्मभिः सप्तास्येभिरृग्मभिः त्वम् यत्पणीनाम् विदो वसुधम् मातृभिर्मर्जयसि स्व आदमारुदस्य देतिभिर्दमे परावतो न समसद्यत्रारणम् दिधीतयाः त्रिधातो विररुढे गर्वयोदधे रोच मानोपयोदधे पूर्वामनु प्रदिशम् जाति चेकि तत्सम् रश्मिभिर्यतते दर्शतो रथो दैव्यो दर्शतो रथाः अग्मन्नुक्तानि पुंसेन्द्रम् चैत्राय हर्षयन् वज्रस्त यद्भवथो अनवच्युता समस्वनवच्युता आनानम् वावूनो धियो विव्रता निजनानाम् रक्षारिष्टम् ऋतम् विषग् ब्रह्मा सुन्वन्दमिच्छतीन्द्रायेन्दोपरिश्रम जनादिभिरोषधीभिः पर्णेभिः सगुणानाो अस्मभिर्जुभिर्गिरण्यवन्दमिच्छतीन्द्रायेन्दोपरिश्रम कारुरहन्ततो विषगो बलप्रक्षिणीनना नानाधियो वसूयवो नुगाजीवतस्थिमेन्द्रायेन्दोपरिश्रम अश्वो गोल्हा सुखम् रथम् हसरामोपमन्त्रिणाः शेभो रोमन्वन्तौ भेदौ वारिन्मण्डूक इच्छतीन्द्रायेन्दोपरिश्रम शर्यनावदिदोपमिन्द्रः पिबदुरत्रः बलम् दधान आत्मनीकरिष्यन् वीर्यम् महदिन्द्रायेन्दोपरिश्रव आपरस्वदिगाम् प्रदार्धीगात्सोमेद्वः ऋतरागेन सत्येन श्रद्धया तपसा सुत इन्द्रायेन्दोपरिश्रव अर्जन्यावृद्धम् महिलम् तम् सूर्यस्य दुहिताभारत अङ्गदम् धर्वा प्रत्यग्रभ्रन्तम् सोमेन समादधुरिन्द्रायेन्दोपरिश्रम ऋतमदनम् ऋतज्ञम् न सत्यम् वदन् सत्यकर्मन् श्रद्धाम् वदन् सोमराजन् धात्रा सोमपरिष्कृत इन्द्रायेन्दोपरिश्रम सत्यमुग्रस्य बृहदः संश्रवन्दितम् श्रवाः संयन्ति रसिनोरसाः पुनानो ब्रह्मणाभर इन्द्रायेन्दोपरिश्रव यत्र ब्रह्मापवमानछन्दस्या आम्बाधम् वदन् ग्राम्णा सोमे महीयते सोमेनानन्दम् जनयन्निन्द्रायेन्दोपरिश्रव यत्र ज्योतिरजस्रम् यस्मिन् लोके स्वर्हितम् तस्मिन्माम् देहि पवमानामृते लोके अक्षीत इन्द्रायेन्दोपरिश्रव यत्र राजा वैवस्वतो यत्रावरोधनम् दिवः यत्रामोर्यह्वतीरापस्तत्र मामृतम् कृधीन्द्रायेन्दोपरिश्रव यत्रानुकामम् चरणम् नायेति दिवे दिवः लोकायद्रज्योतिष्मन्दस्तत्रमामृतम् कृतीन्द्रायेन्दो परिश्रम यत्र मायकामाश्च यत्र भ्रद्रश्च विष्टवम् स्वधाजयत्र नृत्यश्च तत्र मामृतम् कृतीन्द्रायेन्दो परिश्रम यत्रानन्दाश्च मुदाश्च मुदः प्रमुदासते कामस्य यत्राप्ताः कामास्तत्र मामृतम् कृतीन्द्रायेन्दो परिश्रम यजेन्दो प्रवमानस्यानुधामान्यक्रमीत् समागुस्व प्रजायस्ते सोमापि धन्मन इन्द्रायेन्दो परिश्रम मन्त्रकृताम् सोमैः कस्य भोद्वर्धयन् गिराः सोम् नमस्य राजानम् यो यज्ञे वीरुधाम् परिरिन्द्रायेन्दो परिश्रम सप्तरिशो नारारूर्याः सप्तहोतार ऋत्विजाः देवादित्याये सप्तदेभिः सोमाभिरक्षण इन्द्रायेन्दो परिश्रम ते राजन् श्रितम् हविस्तेन सोमाभिरक्षणः अराधीमानस्तादीमोचनः किञ्च नाम मदिन्द्रायेन्दो परिश्रम यत्र तत्परमम् पदम् विष्णोः लोके महीयते देवैः सुकृतकर्मभिस्तत्रमामृतम् कृतीन्द्रायेन्दो परिश्रम यत्र तत्परमाय्यम् भूतानामधिपतिम् भावभावी च योगीश्च तत्र मामृतम् कृतीन्द्रायेन्दो परिश्रम यत्र लोकास्तलोचय श्रद्धया तपसाधिताः तेजश्च यत्र ब्रह्म च तत्र मामृतम् कृतीन्द्रायेन्द्रो परिश्रम यत्र देवा महात्मानस्येन्द्राश्च मरुद्गणाः ब्रह्मा जयत्र विष्टश्च तत्र मामृतम् कृतीन्द्रायेन्दो परिश्रम यत्र गङ्गा च यमुना च यत्र प्राची सरस्वती यत्र सोमेश्वरो देवस्तत्र मामृतम् कृतीन्द्रायेन्दो परिश्रम विश्वेश्वराय नमः अग्रे बृहन्नृषदामूर्धोऽस्ताम् यज्जगन्वान्तमसो ज्योतिषाघात् अग्निर्भादुरारुषदास्वङ्गा जातो विश्वासद्वाणप्राः स जातो गर्भो अधिरोदस्योरग्ने चारुर्विभृतवोषधीषु शीघ्रशिशु परितमां शक्तोन्नमारभ्यो अधिकनिकृतद्गाः विष्णो रिक्षापरममस्य विद्वान् जातो बृहन्नभिवादि तृतीयम् आशायजो अत्र रस्वं सजेरसो अभ्यर्थ्यम् तत्र अत भूत्वापि दुर्वृतो जनित्रीरम् नावृतम् प्रतीतरम् चन्नैः तायीम् प्रत्येषु पुनरन्यरूपासि त्वम् भिक्षुमानुषेषु होता होतारम् चित्ररसमध्वरस्य यज्ञस्य यज्ञस्य केतुम् नृसन्तम् प्रत्यर्थ्यम् देवस्य देवस्य मह्नाशिलात्वा अग्निमतीथिम् जनानाम् सदुवस्त्राण्यधपेशनानिपसानो अग्निर्नाभा पृथिव्याः अरिषो जातः पतैलाया पुरोहितो राजन्यक्षीरदेवान् आयुज्या वा पृथिवीग्नमुदेशता पुत्रो न मातन्तो सतोजविष्टाधावरहस्येह देवान् विप्रेः देवा सतोजविष्टविद्वान् मृतोम् वेदुपदेह ये ऋत्विरस्तेभिरग्ने कुम्भोद्रे रामस्य जिष्टः ोत्रमुत भोत्रम् जनानाम् धातासि द्रविणो दारुदा वा स्वाहा वयम् कृणवामाहवींसि देवो देवान्यजत्वग्निरर्हन् आदेवा नाम विबन्धामगन्मयच्छक्रवामदप्रभो अग्निर्विद्वांसे दो दासो अध्वरान् सर्जोन् कल्पयाति यद्वो वयम् रामिनाम प्रदाने विदुषाम् देवाभिदृष्टराधः अग्निष्टद्विस्तमाप्रेणादि विद्वान्येभिर्देवान् ऋतुभिः कल्पयाति यत्त्वा गत्रामनसानेन दक्षानयज्ञस्य मन्वते मत्याः अग्निष्टद्धोदाकृतविद्वीजानम् यजष्टो देवासो यजाति विश्वेषाम्यध्वरामणीकम् चित्रम् केतुम् जनीतात्वा जगान सहायजस्व नृवतीरनुक्षा स्वार्हायुषाः श्रुमतीर्विश्वजन्याः यम् त्वाद्या वा पृथिवीयम् त्वा भस्त्वष्टायम् त्वा सुजनीमा जजान पन्धावनप्रविद्वान् पीदृजानम् जुमदग्ने समिधानो विभाहि राजन्नरतिः समिद्धोरौ द्रोदक्षराय सुषुमादर्शि श्रीद्विभाति भासा बृहदासिग्ने मे तिरुसदीपायन् कृष्णाञ्जयेनेभोज्जनयन्योढाम् बृहदः पितुर्जाम् ओजम् भारम् सोऽजस्तभायम् दिवो वसोभिररतिर्विभाति भद्रो भद्रयास च मान आघातुसारम् जालो अभ्येति पश्चात् सुप्रकेतैर्जुभिरग्निर्वितिष्ठन् रसद्भिर्वन्नैरभिराममस्तात् अस्यामासो बृहतो न भग्नो निन्धानाग्ने सख्य शिवस्य ीर्जस्य विष्णा बृहदस्वासो भामासो यामन्नग्नवश्चिकित्रे स्वनानयस्य भामासः पवन्ते रोचमानस्य बृहदस्वदिवः ज्येष्ठेभिर्यस्ते दृष्टे क्रेणुमध्यर्वर्वृष्टे सर्वानुभिर्नक्षदिज्ञा अस्य दुष्पादो चतुर्धानमभेर्देहमानस्य स्वलयन्नियुद्भिः रत्नेभिर्योरसद्भिर्देवतमो विरेभद्भिररतिर्भादिविद्वाः सवक्षिमणीनादत्सि दिवस्पृथिव्योररतिर्योपत्योः अग्नेसुजगस्सुजगेभिरस्वैरवस्वाद्येकगम्याः प्रदेयक्षिप्रदायर्मिमन् बभुवो यथा पञ्जो लोहवेषु धन्वन्निव प्रभासित्तमग्नै यक्षवे पूरवे प्रत्रराजन् यम् वाजनासो अभिसञ्चरम् जिगाव उष्णमिव व्रजम् जविष्ट दूतो देवानामसि मत्या नामम् धर्महांसरसिरोचनेन ्यम् वर्धयन्ति मालाभिभक्तिसजनस्य माना धनोदधिप्रवतायासि हर्यम् जिगीषते वसुरिवावसृष्टः मूरामूरणमयम् जीयित्वो महित्वमग्ने त्वमङ्गवित्से वृश्चरति जिह्वजासन्द्रे लिह्यते युवतिम् विश्वतिस्सन् कोचिज्जायते सनयासुलब्जोपनेतस्थौ पलितो धूमकेतुः अस्रातापो वृषभो न प्रवेदि सचेतसोऽयम् प्रणयम् समत्ताः लोक्यते रतस्कारापनग्भूरसराभिर्दसवीरभ्याधीराम् इयम् ते अग्नेरव्यसीमनीषा युक्त्वारसम् न सुजयद्भिरङ्गैः ब्रह्मचले जातवेदो नमश्चेयम् जगीः सदमिबद्धानीभूत् रक्षाणो अग्नेतनयानि दोकारक्षोतनस्तन्वो प्रयुच्छन् ఏకస్వద్రో ధరుణో నీరామస్మద్ృతో భూరి జన్మాపిచష్టె మధ్యే నిహితం పదం వే సమానం నీలం వృషనోపసానాస్సంజగ్నిరేవీరాతస్ పదం కవయో నిపాంతి గుహానామాని దధిరే పరాని విదాలినీ మాలినీ సందధాతే మిత్రాశిషం యజ్ఞదుర్బద్ధయంతి విశ్వస్య నాభింశరతో ధ్రువస్య గవే చిత్రందం మనసా భియంతాః ఋతస్యైవ తనయః సుజాతమిషో వారాయ ప్రతిభస్సజంతే అధీవాసం రోదసీవావసానే ఘృతైరన్నైర్వా వృధా దేవధూనాం సప్తస్వశ్రీరూషీర్వావసానో విద్వాన్ మధ్వబుద్ధ్యభారాదృశేకం అంతర్యే మే అంతరిక్షే పురాజా ఇచ్చన్ వవ్రిమా విదత్పూషణస్య సప్త మర్యాదా కవయస్తదక్షస్తా సామే కాలిదభ్యం లోకాత్ ఆయోర్ఘస్కంభూపమస్య నీలే పదాంబి సద్గే ధరుణే ఋతస్థౌ అసచ్చ పరమే వ్యో మందక్షస్య జన్మన్నదీతే రుపస్థే అగ్నిర్ఘన ప్రథమజా ఋతస్య పూర్వ ఆయోని వృషభస్య ధేనుః భద్రన్నో అభివాదయమనాః ఓ